इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका कामना झा। आदौ मुख्य वार्ताः। प्रधानमंत्री भारतीय जनता पार्टी इति दलस्य वरिष्ठः नेता नरेन्द्र मोदी अवदत् यत् भारतम् अद्य विश्वे शक्तिरूपेण समुदेति। अत्र हि तमिलनाडुः महती भूमिका अस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् होम्योपैथी चिकित्सा पद्धतेः लोकप्रियतायाः संवर्धनाय अनुसंधानं कार्यदक्षता च अतीतराम महत्वपूर्णे स्तः। अपि च होम्योपैथी इत्यस्याः प्रभावं प्रमाणितुं चिकित्सा अनुसंधानस्य वर्धनं परमं आवश्यकता अस्ति। राज्यसभायाः दशभिः नवनिर्वाचितैः सदस्यैः शपथवचनं स्वीकृतम्। ईद उल फित्र पर्व अद्य सम्पूर्णे जम्मू कश्मीरे धार्मिक श्रद्धायाः हर्षोल्लासेन च सह आमान्यते। भारतीय ऋतु विभागेन अद्य महाराष्ट्रस्य मध्यप्रदेशस्य च केभ्यश्चित् भागेभ्यः नारंगवर्णिकी संचेतना प्रसारिता। अपि च इंडियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायाम् अद्य सायं जयपुरे सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दलं गुजरात टाइटन्स दलेन स्पर्धयते। अथ वार्ताः विस्तरेण। प्रधानमंत्री भारतीय जनता पार्टी इति दलस्य वरिष्ठः नेता नरेन्द्र मोदी अवदत् यत् भारतम् अद्य विश्वे शक्तिरूपेण समुदेति। अत्र हि तमिलनाडुः महती भूमिका अस्ति। वेल्लोरे अद्य एकस्याम् नैर्वाचनिक जनसभायाम् श्रीमोदी उक्तवान् यत् तमिलनाडु राज्येन कठोर परिश्रम द्वारा विनिर्माण क्षेत्रे भारतम् पुनोर्गामी विधातुम् अतीत राम महत्वपूर्ण भूमिकाम् निर्व्यूढा। ध्यानस्पन्दमस्ति यत् वेल्लोरतः न्यू जस्टिस पार्टी इति दलस्य प्रत्याशी ए सी षण्मुगम् स्पर्धागणे अस्ति। असौ भारतीय जनता पार्टी इति दलेन पूर्णतः समर्थितः अस्ति। प्रधानमंत्री अद्य सायं महाराष्ट्रस्य नागपुर जनपदे रामटेक प्रखण्डस्य कन्हास्थले जनसभां सम्बोधयति। महायुति प्रत्याशिनां कृते नैर्वाचनिकं प्रचारं च करिष्यति। रामटेक लोकसभा क्षेत्रात् कांग्रेस दलस्य श्याम बोर्वे स्पर्धागणे अस्ति। तम प्रकाश अम्बेडकर नेतृत्वयुतं वंचित बहुजन अध्याडितं दलं समर्थयति। अत्रांतरे बहुजन समाज पार्टी इति दलस्य अध्यक्षा मायावती उत्तरीय नागपुरस्य इंदौर्यां श्वः एकां जनसभां संबोधयिष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् होम्योपैथी चिकित्सा पद्धतेः लोकप्रियतायाः संवर्धनाय अनुसंधानं कार्यदक्षता च अतीतराम महत्वपूर्णे स्तः। अपि च होम्योपैथी इत्यस्याः प्रभावं प्रमाणितुं चिकित्सा अनुसंधानस्य वर्धनं परमं आवश्यकम् अस्ति। राष्ट्रपतिः अद्य नवदिल्ल्यां विश्व होम्योपैथी दिवसस्य अवसरे दिनद्वयात्मिकां होम्योपैथी संगोष्ठी संबोधयति स्म। राज्यसभायाः दशभिः नवनिर्वाचितैः सदस्यैः शपथवचनं स्वीकृतम्। राज्यसभायाः सभापतिना जगदीप धनखड़ेन नवदिल्ल्यां संसद भवने एते शपथं गृहीतः। नवनिर्वाचितेषु सदस्येषु भारतीय जनता पार्टी इति दलस्य मयंक भाई जयदेव भाई नायकः, शिवसेना सिंधे समूहस्य मिलिंदः मुरली देवड़ा, कांग्रेस दलीय रेणुका चौधरी, समाजवादी पार्टी इति दलस्य रामजी लाल सुमनः, तृणमूल कांग्रेस दलीय सागरिका घोषः च अन्यतमाः सन्ति। भारतीय जनता पार्टी इति दलेन लोकसभा निर्वाचनार्थं भूयो अपि नव प्रत्याशिनां सूची प्रकाशिता। तदनुसारी बलियातः राज्यसभा सांसदः नीरज शेखरः, इलाहाबादतः नीरज त्रिपाठी, मौनपुरी सांसदीय क्षेत्रात जयवीर सिंह ठाकुर, चंडीगढ़ क्षेत्रात संजय टंडनाह आसनसोत लोकसभा आसनात एसएस अहुलवालिया च स्पर्धयिष्यति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषे तन्त्रांशे अपि उपलब्धो भविष्यति। ईद उल फित्र पर्व अद्य सम्पूर्णे जम्मू कश्मीरे धार्मिक श्रद्धायाः हर्षोल्लासेन च सह आमन्यते। शुभोत्सव उत्सवः सर्वशक्तिमन्तम् ईश्वरं प्रति धन्यवादस्य प्रार्थनां कृत्वा पवित्रस्य रमजान उपवासमासस्य पराकाष्ठां ज्ञापयति। अद्य प्रातः कश्मीर घाट्यां विभिन्नेषु मस्जिदेषु ईद इत्यस्य नमाज इति प्रार्थना विधीयते। जम्मू कश्मीरस्य उपराज्यपालः मनोज सिन्हा इत्यनेन जनानां कृते ईद उल फित्र पर्वस्य शुभाशयाः प्रदत्तः। प्रधानमन्त्रिणा नरेन्द्र मोदिना आयरलैण्डस्य नवनिर्वाचितः युव प्रधानमन्त्री साइमन हैरिसः वर्धापितः। एकस्मिन् सामाजिक अन्तर्जालपटलीय सन्देशे श्रीमोदी प्रत्यपादयत् यत् सः भारत आयरलैण्ड द्विपक्षिक संयोगं भूयः अपि दृढितुं सम्भूय कार्यम् अनुष्ठातुम् उत्सुकः अस्ति। भारतस्य ऋतुविभागेन अद्य महाराष्ट्रस्य मध्यप्रदेशस्य च केषुचित् भागेषु नारंगवर्णिक संचेतना प्रसारिताः। अस्य मासस्य त्रयोदश दिनांकं यावत् मध्यप्रदेशस्य छत्तीसगढ़स्य महाराष्ट्रस्य च केषुचित् भागेषु एकान्तेषु वज्रपातेन विद्युत् प्रवाहेन 15 किलोमीटर प्रति होरा वेगेन च मध्यवृष्टिः भविष्यति इति पूर्व अनुमानितम्। दक्षिण भारते आगामीषु षड् दिवसेषु तेलंगाना केरल पुद्दुचेरी राज्येषु च एतः परिस्थित्याः निरन्तरं भविष्यति। भारतस्य ऋतुविभागेन पूर्वानुमानितं यत् भारतस्य पूर्वी क्षेत्रे केषुचित् भागेषु आगामि चतुः दिवसेषु प्रायः 3-5 डिग्रीमितं वर्धिष्यति। अन्य सर्वेषु क्षेत्रेषु सामान्य तापः भविष्यति। इंडियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायाम अद्य जयपुरे सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दलम गुजरात टाइटन्स दलेन स्पर्धयते। इयम स्पर्धा भारतीय कालानुसारी सायं 7:30 आरप्स्यते। तत्रांतरे गतरात्रौ चंडीगढ़े महाराज यादविंद्र सिंह अंतरराष्ट्रीय क्रिकेट क्रीडांगणे आयोजिते लोम हर्षके द्वंद्वे सनराइजर्स हैदराबाद दलेन पंजाब किंग्स दलम धावनांकम द्वयेन पराजितम्। मोंटे कार्लो मोर्सिस टेनिस स्पर्धायां विश्वस्य सर्वोत्तम टेनिस क्रीडकाः भारतस्य रोहन बोपन्ना, ऑस्ट्रेलिया देशस्य मैथ्यू एब्डेन च अद्य युगल पुरुष प्राग उपांत्य चक्रे क्रोएशिया इत्यस्य मैट पाविक अल सल्वाडोर इत्येभ्याम सह स्पर्धयति। एषा स्पर्धा भारतीय समयानुसारे 10:05 आरब्धवान्। यद्यपि पुरुष एकल विभागे भारतीय क्रीडकः सुमित नागलः अद्य 32 चक्रे डेनमार्क देशस्य होलन रून इत्यनेन सह स्पर्धयति। मुख्य वार्ताः पुनः एकवारम्। प्रधानमंत्री भारतीय जनता पार्टी इति दलस्य वरिष्ठाः नेता नरेन्द्र मोदी अवदत् यत् भारतम् अद्य विश्वे शक्तिरूपेण समुदेति। अत्र हि तमिलनाडु महती भूमिका अस्ति। राज्यसभायाः 10 नवनिर्वाचितैः सदस्यैः शपथवचनं स्वीकृतम्। ईद उल फित्र पर्व अद्य सम्पूर्णे जम्मू कश्मीरे धार्मिक श्रद्धायाः हर्षोल्लासेन च सह आमान्यते। भारतीय ऋतुविभागेन अद्य महाराष्ट्रस्य मध्यप्रदेशस्य च केषुचित् भागेषु नागरिक नारंगवर्णिकी संचेतना प्रसारिता।